इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झाः। अथ वार्ताः। वन्दे मातरम् इति राष्ट्रगीतस्य 50-अधिकैकशततम वार्षिकोत्सवस्य विशिष्ट चर्चा अद्य लोकसभायाम् आरभेत। प्रधानमन्त्री नरेन्द्रमोदी लोकसभायाम् उपवेशनस्य आरम्भो विधास्यति। गतसप्ताहे वार्ताहरान् सम्बोधयन् संसदीय कार्यमन्त्री किरेन रिजिजुः अवोचत् यत् पूर्णदिवसस्य चर्चा मध्याह्ने 12 आरप्स्यते इति। लोकसभाध्यक्षस्य ओम बिरला वर्यस्य अध्यक्षतायां सर्वदलीय सभायां निर्णयो विहितः यत् 8 वन्दे मातरम् इति विषये चर्चा भविष्यति। दिसम्बर मासस्य 9 निर्वाचन परिष्कार विषये च चर्चा भविष्यति। कोलकाता नगरे ह्यः 5,00,000 स्वरैः सह सामूहिक गीतापाठः आयोजितः आसीत्। सनातन संस्कृति संसदा आयोजितः मुख्यः कार्यक्रमः ब्रिगेड परेड ग्राउण्ड इत्यत्र औपचारिक दीप प्रज्वालनेन आरभत। गीतापाठात् पूर्वं वैदिक कीर्तन सत्रस्य आयोजनं कृतमासीत्। तदनन्तरं भक्तिगीतं शोभायात्रा च अभवत्। इतदनन्तरं गीता मञ्चे संस्थापिता, आरती च विहिता। विभिन्नानां साधूनाम् आध्यात्मिक नेतॄणां च भाषणानन्तरं गीतापाठः आरब्धः। प्रथमः 9-18 अध्यायः एकस्वरेण पठिताः। पश्चिम बंगाल राज्यस्य राज्यपालः सीवी आनंद बोसः अस्मिन् कार्यक्रमे उपस्थितः आसीत्। केन्द्रीय राज्यमंत्री सुकांत मजूमदारः, विपक्षस्य नेता सुवेन्दु अधिकारी, राज्य भाजपा अध्यक्षः श्रमिकः भट्टाचार्यः, देशस्य विभिन्नेभ्यः भागेभ्यः आगताः साधवः च अस्मिन् कार्यक्रमे सोत्साहं भागम् अगृह्णन्। महाराष्ट्र विधानसभायाः शीतकालीन सम्मेलनस्य आरम्भः अद्य नागपुरे भविष्यति। अस्य मासस्य 14 पर्यन्तं सत्रं भविष्यति। प्रथमदिवसे अनुपूरक याचनाः प्रस्तूयन्ते। अस्मिन् सत्रे कृषि सम्बद्धान् सर्वान् विषयान् चर्चयितुं सर्वकारः सज्जः अस्ति। अपि च आहत्य 18 सभायां प्रस्तूयन्ते इति मुख्यमंत्री देवेन्द्र फडणवीस वर्यः सूचितवान्। गोवा सर्वकारः अर्पोरा नगरे अग्निदुर्घटनायां यत्र 25 मृत्युमुपगताः तस्याः दुर्घटनायाः द्रुतं दक्षं च निरीक्षणार्थम् उक्तवान्। अर्पोरा नगरस्य बारदेस तालुका इत्यत्र एकस्यां गोष्ठ्यां महद् अग्नि प्रकोपः अभवत्। भारतस्य ऋतु विज्ञान विभागेन अद्य छत्तीसगढस्य, मध्यप्रदेशस्य, ओडिशा राज्यस्य, विदर्भस्य च केषुचित् भागेषु शैत्य तरंगस्य पूर्वानुमानं प्रकटितम्। अण्डमान निकोबार द्वीपेषु, तमिलनाडु पुद्दुचेरी करैकल द्वीपेषु च मेघवृष्टेः, आकाशीय विद्युतस्य च संभावना वर्तते। तत्रैव गोवा राज्ये 25 मृत्युमुपगताः, अन्ये च अनेके व्रणिताः अभवन्, येन स्थानीय अधिकारिणः तत्क्षणमेव कार्यम् अकुर्वन्। अग्निः प्रकोपस्य कारणं सम्प्रति अपि अज्ञातं वर्तते। घटनायाः द्रुतं दक्षं च निरीक्षणार्थं नियन्त्रणकक्षानां स्थापना च कृता वर्तते। अन्ते च पुरुष हॉकी क्रीडायां केपटाउन नगरे त्रिक्रीडा श्रृंखलायाः प्रथमायां स्पर्धायां भारतम् आतिथेय दक्षिण अफ्रीका दलं 5-2 पराजयत्। द्वितीय हॉकी टेस्ट क्रीडा अद्य भारतीय समयानुगुणं सायं 8:30 केपटाउन नगरस्य हार्टले वेल क्रीडांगणे भविष्यति इति वार्ताः।